ओम नमो भगवते वासुदेवाय। अथषष्टितमोऽध्यायः। श्रीशुक उवाच, कर्हिचित् सुखमासीनं स्वतल्पस्थं जगद्गुरुं पतिं पर्यचरत् भैष्मी व्यजनेन सखी जनैः, यस्त्वेतल्लीलया विश्वं सृजत्यत्यवतीश्वरः, स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः। तस्मिन्नन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना विराजिते वितानेन दीपैर्मणिमयैरपि मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादितैः जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोमलैः पारिजातवनामोदवायुनोद्यानशालिना धूपैरगुरुजैराजन् जालरन्ध्रविनिर्गतैः पयाफेन निभे शुभ्रे पर्यङ्के कशिपूत्तमे उपतस्थे सुखासीनं जगतामीश्वरं पतिम् वालव्यजनमादाय रत्नदण्डं सखीकरात् तेन विजयति देवी उपासाञ्चक्र ईश्वरम्। सोपाच्युतं क्वणयति मणिनूपुराभ्यां रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता वस्त्रान्तगूढकुचकुङ्कुमशोणहारभासानितं भधृतया च परार्ध्यकाञ्च्या तां रूपिणीं श्रियमनन्यगतिं निरीक्ष्य या लीलया धृततनोरनुरूपरूपा प्रीतास्मयन्नलककुण्डलनिष्ककण्ठवक्त्रोल्लसत्स्मितसुधां हरिराबभाषे। श्रीभगवानुवाच, राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः महानुभावैः श्रीमद्भिः रूपौदार्यबलोर्जितैः तान् प्राप्तानर्थिनो हित्वा चैद्यादीन् स्मर दुर्मदान् दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषे समान् राजभ्योऽभिभ्यत सुभ्रू समुद्रम् शरणम् गतान् बलवद्भिः कृतद्वेषान् प्रायश्चक्तनृपासनान् अस्पष्टवर्त्मनाम् पुंसामलोकपथमीयुषाम् आस्थिताः पदवीम् सुभ्रूः प्रायः सीदन्ति योषितः निष्किञ्चना वयम् सश्वन् निष्किञ्चन जनप्रियाः तस्मात् प्रायेण नैयाढ्या माम् भजन्ति सुमध्यमे। ययोरात्मसमम् वित्तम् जन्मैश्वर्या कृतिर्भवः तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् वैदर्भ्ये तदविज्ञाय त्वया दीर्घसमीक्षया वृता वयम् गुणैर्हीन भिक्षुभिः श्लाघिता मुधा अथात्मनोऽनुरूपम् वै भजस्व क्षत्रियर्षभम् येन त्वमाशिष सत्या इहामुत्र च लप्स्यसे। चैद्यसाल्वजरासन्ध दन्तवक्त्रादयो नृपाः मम द्विषन्ति वामोरुरुक्मी चापि तवाग्रजः तेषाम् वीर्यमदान्धानाम् दृप्तानाम् स्मयनुत्तये आनीतासि मया भद्रे तेजोपहरता सताम् उदासीना वयम् नूनम् न स्त्र्यपत्यार्थकामुकाः आत्मलब्ध्या स्महे पूर्णा गेहयोर्ज्योतिरक्रियाः। श्रीशुक उवाच, एतावदुक्त्वा भगवानात्मानं वल्लभामिव मन्यमानामविश्लेषात् तद्दर्पघ्न उपारमत् इति त्रिलोके शपदेस्तदात्मनः प्रियस्य देव्यः श्रुतपूर्वमप्रियम् आश्रुत्य भीता हृदि जातवे पथुश्चिन्ताम् दुरन्ताम् रुदति जगामः पदासुजातेन नखारुणश्रिया भुवम् लिखन्त्यश्रुभिरञ्जनासितैः आसिञ्चति कुङ्कुमरूषितौ स्तनौ तस्थावधो मुख्यति दुःखरुद्धवाक् तस्यासु दुःखभयशोकविनष्टबुद्धेर्हस्तात् श्लथद्वलयतो व्यजनम् पपात देहश्च विक्लवधियः सहसैव मुह्यन् रम्भेव वायुविहता प्रविकीर्य केशान् तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः केशान् समूह्य तद्वक्त्रम् प्रामृजत् पद्मपाणिना प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा आश्लिष्य बाहुना राजन्ननन्यविषयाम् सतीम् सान्त्वयामास सान्त्वज्ञः कृपया कृपणाम् प्रभुः हास्यप्रौढिभ्रमच्चित्ता मतदर्हाम् सताम् गतिः। श्रीभगवानुवाच, मामा वैदर्भ्यसूयेथा जाने त्वाम् मत्परायणाम् त्वद्वच श्रोतुकामेन क्ष्वेल्याचरितमङ्गने मुखं च प्रेम संरम्भ स्फुरिताधरमीक्षितुम् कटाक्षेपारुणापाङ्गम् सुन्दरभ्रुकुटीतटम् अयम् हि परमो लाभो गृहेषु गृहमेधिनाम् यन्नर्मैर्नीयते यामः प्रिययाभिरुभामिनि। श्रीशुक उवाच सैवम् भगवता राजन् वैदर्भी परिसान्त्विता ज्ञात्वा तत्परिहासोक्तिम् प्रियत्यागभयम् जहौ बभास ऋषभम् पुंसाम् वीक्षन्ति भगवन्मुखम् सव्रीडहासरुचिरस्निग्धापाङ्गेन भारत। रुक्मिण्युवाच नन्वेवमेतदरविन्दविलोचनाः यद्वै भवान् भगवतो सदृशी विभुम्नः क्व स्वे महिम्न्यभिरतो भगवान् स्त्र्यधीशः क्वाहम् गुणप्रकृतिरज्ञगृहीतपादा सत्यम् भयादिवगुणेभ्यौरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा नित्यम् कदिन्द्रियगणैकृतविग्रहस्त्वम् त्वत्सेवकैर्नृपपदम् विधुतम् तमोऽन्धम् त्वत्पादपद्ममकरन्दजुषाम् मुनीनाम् वर्त्मा स्फुटम् नृपशुभिर्ननु दुर्विभाव्यम् यस्मादलौकिकमिवे हितमीश्वरस्य भूमन्स्तवे हितमथो अनुये भवन्तम् निष्किञ्चनो ननु भवान् नयतोऽस्ति किञ्चित् यस्मै बलिम् बलिभुजोऽपि हरन्त्यजाद्याः नत्वा विदन्त्य सुत्रिपोऽन्तकमाढ्यतान्धा प्रेष्ठो भवान् बलिभुजामपि ते पितुभ्यम् त्वम् वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् तेषाम् विभो समुचितो भवतः समाजः पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न। त्वम् न्यस्तदण्डमुनिभिर्गदितानुभाव आत्मात्मदश्च जगतामिति मे वृतोऽसि हित्वा भवद्भ्रुव उदीरितकालवेग ध्वस्ताशिशोब्ज भवनाकपतीन् कुतोऽन्ये जाड्यम् वचस्तव गदाग्रज यस्तु भूपान् विद्राव्यशार्ङ्गनिनदेन जहर्थ माम् त्वम् सिंहो यथा स्वबलिमीश पशून् स्वभागम् तेभ्यो भयात् यदुदधिम् शरणम् प्रपन्नः यद्वाञ्छया नृपशिखामणयोऽङ्गवैन्य जायन्तनाहुषगयादय ऐकपत्यम् राज्यम् विसृज्य विविशुर्वनमम्बुजाक्षसीदन्ति तेऽनुपदवीम् त इहास्थिताः किम् कान्यम् श्रयेत तव पाद सरोजगन्धमाघ्राय सन्मुखरितम् जनतापवर्गम् लक्ष्म्यालयम् त्वविगणय्य गुणालयस्य मर्त्या सदोरुभयमर्थ विविक्तदृष्टिः तम् त्वानुरूपमभजम् जगतामधीशमात्मानमत्र च परत्र च कामपूरम् स्यान्मे तवाङ्घ्रिररणम् श्रुतिभिर्भ्रमन्त्या यो वै भजन्तमुपयात्यनृतापवर्गः तस्याश्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणाम् गृहे सुखरगोष्वबिडालभृत्याः यत्कर्णमूलमरिकर्षणनोपयायाद् युष्मत्कथा मृडविरिञ्च सभा सुगीता त्वक्ष्मश्रुरोमनखकेशपि नद्धमन्तर्मांसा स्थिरक्तकृमिविट्कफपित्तवातम् जीवच्छवम् भजति कान्तमतिर्विमूढा याते पदाब्जमकरन्दमजिघ्रति स्त्री अस्त्वम्बुजाक्ष मम ते चरणानुराग आत्मनृतस्य मयि चानतिरिक्तदृष्टेः यर्यस्य वृद्धय उपात्तरज्योतिमात्रो मामीक्षसे तदुहनः परमानुकम्पा नैवालीकमहम् मन्ये वचस्ते मधुसूदन अम्बाया इव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् व्यूढायाश्चापि पुंश्चल्या मनोभ्येति नवम् नवम् बुधो सतीम् न बिभ्रियात् ताम् बिभ्रदुभयच्युतः। श्रीभगवानुवाच साध्वेतच्छ्रोतु कामैस्त्वम् राजपुत्रि प्रलम्भिता मयोदितम् यदन्वात्थ सर्वम् तत्सत्यमेव हि यान् यान् कामयसे कामान् मय्यकामाय भामिनि सन्ति एकान्तभक्तायास्तव कल्याणि नित्यदा उपलब्धम् पतिप्रेम पातिव्रत्यम् च ते नघे यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ये माम् भजन्ति दाम्पत्ये तपसा व्रतचर्यया कामात्मानोपवर्गेशम् मोहिता मम मायया माम् प्राप्यमानिन्यपवर्गसम्पदम् वाञ्छन्ति ये सम्पद एव तत्पतिम् ते मन्दभाग्यानिरयेऽपि येन्द्रिणाम् मात्रात्मकत्वान् निरयः सुसङ्गमः दृष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः सुदुष्करासौ सुतराम् दुराशिषो यसुम्भराया निकृतिञ्जुषः स्त्रियाः न त्वादृशीम् प्रणयिनीम् गृहिणीम् गृहेषु पश्यामि मानिनियया स्वविवाहकाले प्राप्तान् नृपानवगणय्यरहो हरो मे प्रस्थापितो द्विज उपश्रुतसत्कथस्य भ्रातुर्विरूपकर्णम् युधि निर्जितस्य प्रोद्वाह पर्वणि च तद्वधमक्षगोष्ठ्याम् दुःखम् समुत्थमसहोऽस्मदयोगभीत्या नैवाब्रवीः किमपि तेन वयम् जितास्ते दूतस्त्वयात्मलभने सुविविक्तमन्त्रः प्रस्थापितो मयि चिरायति शून्यमेतत् मत्वा जिहास इदमङ्गमनन्ययोग्यम् तिष्ठेत तत्त्वयि वयम् प्रतिनन्दयामः श्रीशुक उवाच एवम् सौरतसंलापैर्भगवान् जगदीश्वरः स्वरतो रमया रेमे नरलोकम् विडम्बयन् तथा न्यासामपि विभुर्गृहे सुगृहवानिव आस्थितो गृहमेधीयान् धर्मान् लोकगुरुर्हरिः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे कृष्णरुक्मिणीसंवादो नाम षष्टितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।